द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत् सर्वपापविनुर्मुक्तः सर्वसिद्धिं फलं लभेत् सर्वसिद्धिं फलं लभेत् श्री द्वादश ज्योतिर्लिङ्गस्तोत्रं सम्पूर्णम्।